मुनित्रेण नमस्कृत्य तदुक्ति परिभाग्य च वैयाकरण सिद्धांतकौमुदीयं विरच्यते। सिद्धांतकौमुद्याः अजन्तपुल्लिङ्गप्रकरणे अष्टाविंशः भागः, एप्रिल् मासस्य पञ्चमः दिनाङ्कः। उकारान्तपुल्लिङ्गाः अधीयन्ते। आदौ शम्भुशब्दः, द जनरल स्टैंडर्ड फॉर उकारान्तपुल्लिङ्गास् इस शम्भुशब्दः। शम्भुशब्दः सर्वदा हरिशब्दवद् भवति, इत्युक्ते हरिशब्दस्य यानि कार्याणि तान्येव कार्याणि अत्रापि प्रवर्तन्ते इत्यर्थः। यथा घिसंज्ञा अस्ति तन्निमित्तानि कार्याणि, आङ्गो नास्त्यामिति नाभावः, घेर्ङिति इति गुणः, अच्चघेः इति औत्वं सर्वं प्रवर्तते। एवमेव जसि च ह्रस्वस्य गुणः इति गुणोऽपि भवति। तस्मात् शम्भुशब्दस्य हरिशब्दस्य च प्रक्रियायां हेलो या हाँ हाँ या वेर वाज आई वेर दिस सो या शंभु शब्द गोज एंटायरली लाइक हरि शब्द विद द कार्यस घिसम्या प्रयुक्तानि कार्याणि भवन्ति। हस्तस्य गुणः जसि च इति गुणोऽपि भवति। तेन शम्भुशब्दस्य प्रक्रिया हरिशब्दस्य प्रक्रिया इत्युभे समाने। अनन्तरं क्रोष्टुशब्दः, क्रोष्टुशब्द इस् द ओन्ली उकारान्तपुल्लिङ्ग दट् डिफर्स् फ्रम् शम्भुशब्द इन् इट्स् प्रक्रिया, एण्ड् दट् इस् बिकास् आफ् वाट् इस् काल्ड् त्रिज्वद्भावः। वस्तुतः क्रोष्टु इति उकारान्तशब्दः एकः, क्रोष्टृ इति ऋकारान्तः शब्दः अपरः विद्यते। ऋकारान्तः त्रिजन्तः, उकारान्तस्य तुन्नन्तः इति। तत्र उकारान्तस्य रूपाणि सर्वत्र प्रयोगे न दृश्यन्ते। वि डु नाट् सी द प्रयोग आफ् उकारान्त वर्ड् एव्रिवेर्। दट् इस् वै द टेक्निक् पाणिनि एम्प्लाय्स् टु प्रिवेण्ट् दोस् प्रयोगस् इस् टु से दट् इन् सच् केसस् इट् बिकम्स् लैक् द त्रिजन्त। त्रिज्वत् क्रोष्टुः, क्रोष्टुशब्दः त्रिज्वद् भवति, त्रिजन्तवद् रूपाणि लभते इत्यर्थः। सो देर् आर् सम् केसस् वेर् द प्रातिपदिका इट् सेल्फ् इस् कन्वर्टेड् टु अ ऋकारान्त प्रातिपदिका। ऋकारान्तस्य यानि कार्याणि तानि कार्याणि भवन्ति, ऋकारान्तवदेव रूपाण्यपि भवन्ति। प्रथमाविभक्तौ एकवचने किं भवति? क्रोष्टु इत्यस्य त्रिज्वत् क्रोष्टुः इति सूत्रेण त्रिज्वद्भावे क्रोष्टृ स। इदानीं ऋदुशनस्पृदं सोनेहसाञ्च इत्यनेन अनङ् आदेशः प्रातिपदिकस्य अन्तादेशत्वेन अनङ् भवति, तेन क्रोष्टन् सु इदाते अप्तृन्तृच् स्वसृन् अप्तृनेष्टृ त्वष्टृ क्षत्रुहोतृपोतृप्रशास्तॄणाम् इति सूत्रेण उपधायाः दीर्घः। अबादीनाम् उपधायाः दीर्घः स्यात् असम्बुद्धौ सर्वनामस्थाने परे इत्यत्वात् क्रोष्टन् इत्यस्ति। उपधा नाम अलोन्त्यात् पूर्व उपधा, अन्त्यादलः अत्र अन्त्यम् अल् भवति मकारः, तस्मात् पूर्ववर्णः नाम अकारस्य उपधा इति संज्ञा विद्यते। उपधायाः हेलो Sorry, the network seems to have some problem today. Anyway, क्रोष्टन् इत्यस्य उपधायाः दीर्घः उपधा अनोन्त्यात् पूर्वोपधा इत्यनेन अकारस्य क्रोष्टन् इत्यत्र नकारात् पूर्वस्य अकारस्य उपधासंज्ञा विद्यते तस्य उपधायाः दीर्घः भवति असम्बुद्धौ सर्वनामस्थाने परे इत्यत्वात् क्रोष्टान् स् इति भवति क्रोष्टान् स् इत्यस्य हल्ङ्याभ्यो दीर्घात् इत्यस्य प्रत्यं हल् इत्यनेन सकारस्य लोपः हलन्तात् परस्य नकारः हल् तस्मात् परस्य अपृक्तस्य सकारस्य लोपः हल्ङ्याभ्यो दीर्घात् इत्यस्य प्रत्यं हल् इति सूत्रेण तेन क्रोष्टान् इति स्थिते सुप्तिगन्तं पदम् इत्यनेन अस्य परसंज्ञायाः सत्त्वात् नलोपः प्रातिपदिकान्तस्य इत्यनेन नलोपः तेन क्रोष्टा इति प्रथमाविभक्तौ एकवचने रूपम् This form is like a standard rakaranta shabda, which is say, dhatru becomes dhata, pitru becomes pita. So, kroshtu, even though it is ukaranta, since it is currently behaving like a rakaranta, prathamaya bhakto ekavachane kroshta iti rupam. Asya sutrasya vishaye, kinchita, kashchana vicharaha kriyate. Kimasti sutre, appo, तृन् तृच् इत्यस्ति अप् इति शब्दः आपः नाम जलम् इत्यर्थे अप् शब्दः तृन् तृच् इति द्वौ प्रत्ययौ तृन् प्रत्ययः तृच् प्रत्ययः ततः स्वसृ नप्तृ नेष्ट्र त्वष्ट्र क्षत्र पोतृ पोतृ प्रशास्त्र इति अष्टौ शब्दाः सो तृन् अण्ड् तृच् इन् जेनरिक् शब्द प्रत्यय एण्ड् द रिमेनिङ्ग् नैन् Up and 8 starting from Swastra are specific Pratipadikas. This sutra would apply for any Shabda which is ending in Trin Pratyaya, that which is ending in Trich Pratyaya, and for the listed words. Right. Now, Trin Trichau Dvividhau. Trin Pratyaya Trich Pratyayashta Dvedha Bhavati. Ekantu Ashtadhyayameva Paninina Trin Pratyaya Vihitaha Kridan Kritsu. तृन् इति कृत् प्रत्ययः विद्यते तृच् इत्यपि कृत् प्रत्ययः विद्यते अपरञ्च उणादि आगतमेव हेलो हलो हलो kind of thing. So there's some serious problem. I just reset the network connection. I hope it works now. I was talking about Trin and Tripch. So Trin Pratyaha, Tripch Pratyashta, Dvedha Bhavati. Ekastu Ashtadhyayam, Paninimaiva, Vihitaha Pratyaha, Kritsu. So Trin is a Krit Pratyaya, like you have, and Tripch is also. Like you have the other Nul and other Pratyayas, you have normal Krit Pratyayas, one is Trin and other is Tripch. Also, Unadi Sutreshvapi, Trin Pratyaha, Tripch Pratyashta, Vithiyate. Among Unadis, also, in the Unadi Sutra separately, for the derivation of some words, the pratyas Trin and Trich have been defined. So, Atra Kasya Trin Pratyasya Kasya Trich Pratyasya Grahanam Bhavati Iti Prashna. Since it Bala Manoramayam Pashyaha. So, he says, Atra Ashtadhyayam Tavatu. This is a Vyakhyana which comes below that Aptrinsit Sutra. Taking, I think, the Pratika as Maptradik Grahanam Niyamartham below that thing. So, Atra Ashtadhyayam Tavatu Trin Iti Sutrena Nul Trichau Iti Sutrena Sa Kartari Trin Trichau Vihitau Ashtadhyayam Trin Pratyaha Vidhiyate Trin Ityeva Sutramasti. So Trin itself is a sutra which mandates Trin Pratyaya for a few dhatus. Nul Truchau Ityanena Tu Sarvesham Dhatunam Kartrarthe Trich Iti Pratyaha Vidhiyate. Okay. So these are for Trin and Trich. Tatha Unadishu. Unadishu Kim Bhavati Trin Truchau Shamsikshadaribhyah Sanyayan Chanitau Bahulamanyatrapi Iti Sutrabhyam Trin Trichau Vidhaya. Etabhyam Sutrabhyam Punaha Trin Pratyaha Vidhiyate Trich Pratyaha Vidhiyate. Naptru Neshtru Tvashtru Hotru Kotru Bhratru Jamatru Matru Pitru Tahitru Iti Sutrena Naptradayo Nipatitaha. And then there is this long sutra which gives ready-made forms. Told you Nipatanam Nama Siddha Prakriyasya Adesho Nipatanam. So ready-made form is called a Nipatana. And these forms Naptru, Neshtru, Tvashtru, etc. have been given as Nipata. That is readily as Trinantas or Trijantas. They have been given as Trijantas. You see that many of the words which appear in our sutra, Aptrintrich, are also here. Naptru, Neshtru, Tvashtru, Hotru, Potru. So these five words are also included in our sutra. So the situation is that there is a Trin and Trich which is given by the Ashtadhyayi, and there is a Trin and Trich which is given by the Unadi Sutra, right? The Pratika for this I don't remember, it should be either before or after the after this Mula Naptradigrahanam iti Pratika. Napradigrahanam should be the pratika. So this should come either before or after this. So I'm not exactly sure. So idanim kim bhavati eshu among these two, which pratyaya should be taken? There are two pakshas. Tatascha samyashabdaha trintrijantaha aunadikaha iti sthitihi. So the trin and trijantas, trin pratyayantas and trijantas, it's a samya. You see that there is a difference when you are saying something as a trijanta in kartari trich. Okay. Kartari trich iti te kaha arthaha. Karoti iti karta. Harati iti hartru. Gachati iti gantru. So all these are where the vyutpatti is kartari, which means kartru can be just anybody. Right? Anybody who does can be a karta, but the ones which are given in the unadis, for example mata, bhata, etc., they are all not like that. They are all called samya shabda, because matru, even though it has been derived from say madhatu, and you have a trich pratyaya. Ma dhatu is mang mane, or this particular. So if you are taking mang mane, if you are adding kartari trich, anybody who measures can be considered as a matru. But when you are saying matru as an unadi pratyayanta, it's only a mother, right? Anybody who it cannot apply to everybody. It applies to one particular person who is the mother. So that is why these are all called as samya shabdas. The ones which are given by the ashtadhyayi, trin and trich are directly derived from dhatu, and they are in kartratha, which means somebody who does that action. Anybody who does that action can be indicated by that word. While this bhratru, jamatru, matru, they are all very specific samya shabdas. They refer to specific relations. Right. So now these samya shabdas are all aunadikas, where the general thing are from trin and trich of krit pratyayas. Tatra trijantatva deva siddhe naptradi grahanam vyartham ityata aha naptradi grahanam vyutpatti pakshe niyamartham iti. So this is the kaumudyam dikshitaihi eva muktam naptradi grahanam vyutpatti pakshe niyamartham iti. Orthaha उणादीनि व्युत्पन्नानि इत्येकः पक्षः विद्यते, उणादीनि अव्युत्पन्नानि इत्यपरः पक्षः. वी हैव टॉक्ड अबाउट दिस बिफोर. उणादीनि अव्युत्पन्नानि इति एकः पक्षः. व्हाट डज द पक्ष से दैट द उणादीस, व्हाट एवर वर्ड्स हैव बीन डिराइव्ड फ्रॉम उणादि प्रत्ययस, दे आर अव्युत्पन्ना. मीन्स वी डू नॉट कंसिडर देम एज डिराइव्ड वर्ड्स, दे आर ऑल रेडीमेड फॉर्म्स. इदानीं मातृ इत्यस्ति चेत् मातृ इत्येव शब्दः. तत्र का प्रकृतिः, कः प्रत्ययः, नप्त्रादिग्रहणं नियमार्थम् इति उच्यते. कः अर्थः? उणादीनि अव्युत्पन्नानि इत्येकः पक्षः विद्यते, उणादीनि अव्युत्पन्नानि इत्यपरः पक्षः. उणादीनि अव्युत्पन्नानि इति पक्षस्य कोऽर्थः, ये उणादयः शब्दाः ते तथैव भवन्ति, तत्र प्रकृतिप्रत्ययविवेचनं न क्रियते. विच् सिम्प्ली मीन्स् दट् इन् उणादीस् वि ट्रीट् देम् एस् रेडिमेड् वर्ड्स् एण्ड् वि डु नाट् लुक् इन् टु वाट् इस् अ प्रकृति, वाट् इस् अ प्रत्यय. फार् एक्साम्पल् इफ् यु से रामः, रामः इति व्युत्पन्नशब्दः, रम इति धातोः घञ् प्रत्ययः क्रियते, तत्र आदिवृद्धिः, तेन राम इति प्रातिपदिकं भवति. राम इति व्युत्पन्नं प्रातिपदिकम्. सो आल् कृदन्तास् एण्ड् वाट् एवर् हेस् बीन् प्रत्ययास् गिवन् बै पाणिनि हिम्सेल्फ़्, दे आर् आल् एनि वर्ड् डिरैव्ड् फ्रम् दोस् प्रत्ययास् विल् बि काल्ड् व्युत्पन्न, बिकास् वि केन् स्प्लिट् इट् इन् टु अ प्रकृति एण्ड् अ प्रत्यय. किन्तु उणादिषु तथा न क्रियते. इदानीं मातृ इत्यस्ति चेत् मातृ इत्येव शब्दः. वि डु नाट् गो इन् टु ट्रैङ्ग् टु फैण्ड् औट् वाट् इस् द प्रकृति, वाट् इस् द प्रत्यय एण्ड् सो आन्. मातृ इत्येव शब्दः, अव्युत्पन्नं प्रातिपदिकम् इति उच्यते इति एकः पक्षः. सो वेन् वि आर् ट्रीटिङ्ग् इट् एस् अव्युत्पन्न प्रातिपदिक, Sorry, I really don't know what to do about this. I guess, okay. So, did you get me explaining the Vyutpanna and Avyutpanna Pratiparikas? I'll tell you now, if we lose the connection again, I think we can stop the class here today, because I'm losing my thread. I'll see what I can do about this. I'll complain to BSNL and hope to set the connection right. Okay. Is it? Oh, sure, please mail me so that we can do something about this. So now, Unadini Avyutpanna. So as I said, Rama is a Vyutpanna Pratipadika because we can look at the Prakriti and Pratyaya there and decide that Ram is the Dhatu, Khai is the Pratyaya. For all Pratyayas which have been given by Panini himself in the Ashtadhyayi, this works out. We say that everywhere we identify the Prakriti, Pratyaya and give the derivation. But Unadi Shabdeshu Tathana Kriyate. Kim Kriyate? Matru Itiva, Pitru Itiva, Shabdaha. So it's a ready-made word. We do not see Atra Kaha Prakritihi Kaha Pratyaha Iti Vivechanam Na Kriyate. So it's just one word, a whole word which is as it is, and then we go on adding the Supratyaya or any other Pratyayas. Right? So Unadini Avyutpannani Iti Pakshaha. Asmin Pakshe Kim Bhavati, Trun Krits Iti Pratyayo. According to this Paksha, Avyutpannani Unadini Iti Pakshe, Naptradini Pratiparikanyapi Avyutpannani. So whatever the words which have been listed in the Sutra, Ap Trun Krits Chityatra, Naptru, Neshtru, Tvashtru, Kshatru, Hotru, Potru, Prashastru, all of them are Avyutpannas, all of them are Unadis, Unadyantas. So they are all avyutpannani pratipadikani. Ityukte naptru ityeva shabdaha. It is not tridanta. Naptru, neshtru, even though they end in the unadika trich or trin pratyaya. All those words end in trich or trin. That is the first thing. Naptru, neshtru, tvashtru. You can hear that tru everywhere. So they are all words which are ending in trich or trin pratyaya. But those trich or trin belongs to the unadis. So, unadini avyutpannani iti pakshe, we do not treat them as pratyayas. We treat naptru as a whole word, neshtru as a whole word. So, in that case, they are not treated as trinantas or trijantas. So, that is why Panini had to list them separately and say, all these will get upadha dirgha. Kintu, unadini vyutpannani iti pakshe, kim bhavati, naptru ityatra, napu iti dhatoho bhagaha, trin athava trich pratyayaha. Right? Sunadini Vyutpannani iti pakshe, it is tridanta or trinanta. All the words, naptru, neshtru, tvashtru, kshatru, hotru, potru, prashastru, all those are tridantas or trinantas. So when that is the case, why should he list them separately? He has already said trinantas and tridantas will get up, trin, trich iti uktam. Kimartham punaha naptru, neshtru, ityadi uchyate. Svasru, naptru, neshtru, ityadi uchyate. Iti prashnaha. Did you get the question? If you are saying unadini avyutpannani, then there is no problem. The trin and trich which are mentioned in the sutra are the pratyayas of Panini. Ashtadhyayaha pratyayau. Naptru, svastru, ityadini avyutpannani pratiparikani. Kevalam trin, trich iti ukte tesham pratiparikanam upadadirgaha nabhavati. Tesham api upadhadirgaha ishyate ityataha sutre tesham pariganam kriyate. Iti sarvam yuktam. Kintu unadini vyutpannani iti aparah pakshaha. We also have a paksha which says the unadis are vyutpanna pratiparikas. Tatra kim bhavati naptru ityatra trin pratyaha. Svasra athava udgatra ityatra trich pratyaha ityadi itya vivechanam kriyate. Then what happens? Naptru is either a trinanta or trijanta. Similarly, all the words listed in the sutra after trin trich are either trinantas or trijantas. So, since they are trinantas or trijantas, aptrin trich itteva sutra mastu. That is the asaya. सूत्रं किं भवतु अप् तृन् तृच् इत्येव सूत्रमस्तु तेन तृन् तृच् इत्यनेन अष्टाध्याय्याः तृन्तृचोरपि ग्रहणम् औणादिकयोः तृन्तृचोरपि ग्रहणम् उभयोरपि ग्रहणे सति तेनैव तृणन्तत्वात् तृजन्तत्वात् नप्तृ स्वसृ नेष्टृ इत्यादीनां शब्दानाम् उपधादीर्घः सिद्ध्यति पुनः नप्तृ नेष्टृ इति किमर्थम् वै शुड् हि लिस्ट् द सूत्र लिस्ट् द शब्दास् इति क्वश्चन् तदा उच्यते अस्मिन् पक्षे कृजन्तत्वादेव सिद्धे सूत्रे नप्त्रादिग्रहणं नियमार्थम् दट् इस् वाट् दीक्षितर् सेस् व्युत्पत्तिपक्षे नप्त्रादिग्रहणं नियमार्थम् इट् इस् फार् अ नियम नियमः नाम कः सिद्धे सति आरभ्यमाणो निधिः नियमाय भवति वेन् सम्थिङ्ग् इस् आल्रेडि हेप्पनिङ्ग् वेन् सम् कार्य इस् आल्रेडि हेप्पनिङ्ग् इफ् हि सेस् स्टार्ट्स् अ न्यू सूत्र आर् सम्थिङ्ग् टु टेल् दट् द कार्य विल् हेपन् अगेन् देन् हि मीन्स् अ नियम Niyama means a restriction of the this. So what is the Niyama? Unadi nishpannanam trin trijantanam samnya shabdanam ched bhavati tarhi naptradinam eva. Ayam Niyama. So what is the Niyama being done here? Yadi unadi nishpannanam shabdanam upadhadirghah bhavati. So there are many unadi trinantas and trijantas. Right? Tesho एतेषामेव उपधादीर्घः भवति अस्मिन् सूत्रे यानि प्रातिपदिकानि परिगणितानि तेषामेव उपधादीर्घः भवति अन्येषां न भवति इति नियमः सो बै लिस्टिङ्ग् दीस् वर्ड्स् ही टेल्स् दट् अमङ्ग् उणादीस् अमङ्ग् द तृणन्तास् एण्ड् त्रिजन्तास् आफ् उणादीस् उपधादीर्घ विल् हेपन् ओन्ली फार् दीस् वर्ड्स् एण्ड् नाट् फार् एनी अदर् उणादि वर्ड्स् even if it happens to be trinanta or trijanta. For example, among unadis, sorry, if you see the unadis, this sutra in the unadis, naptru, neshtru, tvashtru, hotru, potru, bhratru, jamatru, matru, pitru, duhitru. Among these, all these are again trinantas or trijantas, right? Naptru Neshtru, starting this sutra, this Unadi sutra, all words which have been given as Nipata are either Trinantas or Trijantas. Okay. Now, among these, the first four, or the first five, Naptru, Neshtru, Tvashtru, Hotru, Potru, have been listed in the sutra Aptrantrich also. But Bhratru, Jamatru, Matru, Pitru, Duhitru are not listed. Even though all of them are Trijantas, the first five are listed in Aptrantrich and the last five are not listed. So what does it mean? In Unadis, these are all Trijantas. So in Unadis, if for Trijantas there would be Upadhadikha, it is only for those which have been given in the Sutra Aptrantrich, which means the words which are not listed there, like Bhratru, Jamatru, Matru, Pitru, Duhitru, will not get Upadhadikha. Even if they are Trijantas, even if Unadini Vyutpannani Ittyeva Pakshaha. Unadini Vyutpannani Iti Pakshepi, Etesham Bhratri Jamatradinam Upadhadirgha Nabhavati. Kuto Nabhavati, Sutrena Niyamah Kriyate. Trintrich Ittyeva Siddhe, Naptradigrahanam Niyamartham. Kaha Niyamaha, Unadinishpannanam Samnyashabdanam Trintrijantanam Chedbhavati. If such words should get upadhadirgha, tarhi naptradinam eva, then they should be listed in the sutra. If the word is not listed in the sutra, even if it is trinanta or trijanta of unadis, then it will not get upadhadirgha. That is why the rupa for mata is mata, matarau mataraha, pita pitarau pitaraha, bhrata bhratarau bhrataraha. But for these words, it would be napta naptarau naptaraha. होता होतारौ होतारः एट्सेट्रा स एव नियमः नप्त्रादिग्रहणं व्युत्पत्तिपक्षे नियमार्थं को नियमः उणादिनिष्पन्नानां तृन्तृजन्तानां संज्ञाशब्दानां चेद् भवति तर्हि नप्त्रादीनामेव सो द कन्क्लूशन् इस् इफ् द वर्ड् हेस् बीन् डिरैव्ड् फ्रम् तृण् ओर् त्रिच् आफ् द अष्टाध्यायी फार् एक्साम्पल् कर्ता कर्ता कर्तारौ कर्तारः ಹರ್ತಾ ಹರ್ತಾರೋ ಹರ್ತಾರಃ, ಗಂತಾ ಗಂತಾರೋ ಗಂತಾರಃ. ಸೊ ಎವ್ರಿವೇರ್ ದೇರ್ ಇಸ್ ದೀರ್ಘ. ಇಫ್ ಇಟ್ ದ ತೃನ್ವರ್ತ್ರಿಚ್ ಬಿಲಾಂಗ್ಸ್ ಟು ದ ಅಷ್ಟಾಧ್ಯಾಯಿ, ದ ಕೃತ್ ಪ್ರಕರಣ ಆಫ್ ಅಷ್ಟಾಧ್ಯಾಯಿ, ದೆನ್ ಆಲ್ವೇಸ್ ದೇರ್ ಇಸ್ ಅ ದೀರ್ಘ. ಬಟ್ ಇಫ್ ದ ತೃನ್ ಆರ್ ತೃಚ್ ಇಸ್ ಫ್ರಮ್ ದ ಉಣಾದೀಸ್, ದೆನ್ ಪದಾದೀರ್ಘ ಇಸ್ ಓನ್ಲಿ ಫಾರ್ ದೀಸ್ ವರ್ಡ್ಸ್, ಸಸ್ರ ನಪ್ತೃ ನೇಷ್ಟೃ ತ್ವಷ್ಟೃ ಕ್ಷತೃ ಹೋತೃ ಪೋತೃ ಪ್ರಶಾಸ್ತೃ, ಫಾರ್ ದೀಸ್ ಏಟ್ ವರ್ಡ್ಸ್. ಫಾರ್ ಅದರ್ ವರ್ಡ್ಸ್, ಅದರ್ ಉಣಾದ್ಯಂತಾಸ್, ಅನ್ಯೇಷಾಂ ಉಣಾದ್ಯಂತಾನಾಂ ಪದಾದೀರ್ಘ ನ ಭವತಿ, ತೃನ್ನಂತತ್ವೇಪಿ ತ್ರಿಜಂತತ್ವೇಪಿ ನ ಭವತಿ, ತೇನ ಪಿತೃ ಭ್ರಾತೃ ಪ್ರಭೃತೀನಾಂ ನ. ದಟ್ ಇಸ್ ವೈ ಫಾರ್ ಪಿತೃ ಆರ್ ಭ್ರಾತೃ ವಿ ಡು ನಾಟ್ ಹ್ಯಾವ್ ಉಪಧಾ ದೀರ್ಘ. ಬಟ್ ದೆರ್ ಇಸ್ ಅ, ದಟ್ ಇಸ್ ದ ಪ್ರಕರಣ. ಬಟ್ ದೆರ್ ಇಸ್ ಅನದರ್ ಕ್ವೆಶ್ಚನ್ ರೀಸ್, ದೆರ್ ಇಸ್ ಅ ಶಬ್ದ ಕಾಲ್ಡ್ ಉದ್ಗಾತೃ. ದಿಸ್ ಹೋತೃ ಪೋತೃ ಉದ್ಗಾತೃ ಆರ್ ಆಲ್ ವರ್ಡ್ಸ್ ರಿಲೇಟೆಡ್ ವಿತ್ ಯಜ್ಞಾಸ್ ಆರ್ ಯಾದರ್ ಸ್ಪೆಸಿಫಿಕ್ ಪೀಪಲ್ ಇನ್ ದಿಸ್ ಆರ್ ಕಾಲ್ಡ್ ಸೇ ಹೋತೃ ಉದ್ಗಾತೃ ಎಟ್ಸೆಟ್ರಾ. ಉದ್ಗಾತೃ ಇತಿ ತೃನ್ನಂತಹ, ಇಟ್ ಇಸ್ ಆಲ್ಸೋ ಎ ಉಣಾದಿ. ಉದ್ಗಾತೃ ಇತಿ ಔಣಾದಿಕ ಶಬ್ದ, ಔಣಾದಿಕ ಸಂಜ್ಞಾ ಶಬ್ದ, ಅಸ್ಮಿನ್ ಸೂತ್ರ ನಾಸ್ತಿ, ಅಪ್ತೃನ್ ತೃಚ್ ಇತ್ಯತ್ರ ನಾಸ್ತಿ. ತರ್ಹಿ ಕಿಂ ಭವೇತ್, ಯಥಾ ಪಿತಾ ಪಿತರೌ ಪಿತರಃ, ಭ್ರಾತ ಭ್ರಾತರೌ ಭ್ರಾತರಃ, ತಥೈವ ಉದ್ಗಾತ ಉದ್ಗಾತರೌ ಉದ್ಗಾತರಃ ಇತಿ ಭವೇತ್. ಸೊ ಲಾಜಿಕಲಿ ಉದ್ಗಾತೃ ಶುಡ್ ಆಲ್ಸೋ ನಾಟ್ ಗೆಟ್ ಉಪಧಾ ದೀರ್ಘ, ಬಿಕಾಸ್ ಇಟ್ ಹಸ್ ನಾಟ್ ಬೀನ್ ಲಿಸ್ಟೆಡ್ ಇನ್ ಅಪ್ತೃನ್ ತೃಚ್. ಬಟ್ ದ ಪ್ರಯೋಗ ಇಸ್ ಉದ್ಗಾತ ಉದ್ಗಾತಾರೌ ಉದ್ಗಾತಾರಃ, ವೇರ್ ಯು ಹಿಯರ್ ದ ದೀರ್ಘ ಫಾರ್ ದಟ್ ತಾ ರೈಟ್. ದೀರ್ಘ ಶ್ರೂಯತೆ ಕಥಂ ಇತಿ ಪ್ರಶ್ನಃ, ಉದ್ಗಾತೃ ಶಬ್ದಸ್ಯ ಕಥಂ ಉಪಧಾ ದೀರ್ಘಃ ಇತಿ ಚೇತ್, ಉದ್ಗಾತೃ ಶಬ್ದಸ್ಯ ತು ಭವತ್ಯೇವ, ಕಿಂ ಭವತಿ ಉಪಧಾ ದೀರ್ಘಃ ಭವತಿ, ಕಥಂ ಭವತಿ ಸಮರ್ಥ ಪದವಿಧಿಃ ಇತಿ ಸೂತ್ರೇ ಉದ್ಗಾತಾರಃ ಇತಿ ಭಾಷ್ಯ ಪ್ರಯೋಗಾತ್. ಸಿನ್ಸ್ ದ ಭಾಷ್ಯಕಾರ ಹ್ಯಾಸ್ ಯೂಸ್ಡ್ ಉದ್ಗಾತಾರಃ ವಿತ್ ದೀರ್ಘ, ವಿ ನೋ ದಟ್ ದ ಸಾಧು ಪ್ರಯೋಗ ಇಸ್ ವಿತ್ ಅ ದೀರ್ಘ ಆ್ಯಂಡ್ ನಾಟ್ ವಿತ್ ಅ ಹ್ರಸ್ವ. ಸೊ ಇಟ್ ಇಸ್ ವೈ ಲೈಕ್ ವಾರ್ತಿಕ ವಿತ್ ಸಮಟೈಮ್ಸ್ ಆ್ಯಡ್ ಸಮ್ ಶಬ್ದಸ್ ಟು ದೋಸ್ ಆಲ್ರೆಡಿ ಇನ್ ದ ಸೂತ್ರ ಹಿಯರ್, ಬಿಕಾಸ್ ಭಾಷ್ಯಕಾರಸ್ಯ ಪ್ರಯೋಗ ಬಲಾತ್ ಉದ್ಗಾತಾರಃ ಇತ್ಯತ್ರ ದೀರ್ಘ ಭವತಿ. ಸೊ ದ ಉದ್ಗಾತಾರಃ ದ ಉಪಧಾ ದೀರ್ಘ ಇನ್ ದಿಸ್ ವರ್ಡ್ ಇಸ್ ನಾಟ್ ಬಿಕಾಸ್ ಆಫ್ ದ ಸೂತ್ರ, ಇಟ್ ಇಸ್ ಬಿಕಾಸ್ ಆಫ್ ಭಾಷ್ಯ ಪ್ರಯೋಗ. ಸೊ ಎನಿ ಅದರ್ ವರ್ಡ್ ವಿಚ್ ಇಸ್ ನಾಟ್ ಬೀನ್ ಲಿಸ್ಟೆಡ್ ಇನ್ ಅಪ್ತೃನ್ ತೃಚ್ ವಿಲ್ ನಾಟ್ ಗೆಟ್ ಉಪಧಾ ದೀರ್ಘ. ಇಸ್ ದಿಸ್ ಕ್ಲಿಯರ್? ಎನಿ ಕ್ವೆಶ್ಚನ್? ಬಸೂಜಿ ಎಸ್, ಇಟ್ ಇಸ್ ಅನ್ ಉಣಾದಿ ಪ್ರತ್ಯ, ಇಟ್ಸ್ ಎಂಡ್ಸ್ ಇನ್ ಉಣಾದಿ ತೃನ್. ಹಾಂ, ಇಟ್ ಇಸ್ ನಾಟ್ ರೆಗ್ಯುಲರ್ ತೃಚ್. ಫಾರ್ ಆಲ್ ರೆಗ್ಯುಲರ್ ತೃಜಂತ ದೇರ್ ವಿಲ್ ಬಿ ಉಪಧಾ ದೀರ್ಘ, ದೇರ್ ಇಸ್ ನೋ ಡೌಟ್ ಅಬೌಟ್ ದಟ್. ದ ಕ್ವೆಶ್ಚನ್ ಇಸ್ ಓನ್ಲಿ ಇನ್ ಕೇಸ್ ಆಫ್ ಉಣಾದೀಸ್. ಎನಿ ಅದರ್ ಕ್ವೆಶ್ಚನ್ಸ್? ಓಕೆ, ನಾವು ವಿಲ್ ಕಮ್ ಬ್ಯಾಕ್ ಟು ಕ್ರೋಷ್ಟು ಶಬ್ದ. ರೈಟ್, ಯು ನೋ ದಟ್ ಕ್ರೋಷ್ಟು ಇತ್ಯಸ್ಯ ಪ್ರಥಮ ವಿಭಕ್ತೌ ಏಕವಚನೆ ಸುಪ್ರತ್ಯಯೇ ಕ್ರೋಷ್ಟಾ ಇತಿ ರೂಪಂ. ದ್ವಿವಚನೆ ಕಿಂ ಭವತಿ? ಕ್ರೋಷ್ಟು ಔ ಇತ್ಯಸ್ತಿ. ತ್ರಿಜ್ವತ್ ಕ್ರೋಷ್ಟುಃ ಅಸಂಬುದ್ಧೌ ಸರ್ವನಾಮ ಸ್ಥಾನೇ ಪರೇ ಕ್ರೋಷ್ಟು ಶಬ್ದಃ ತ್ರಿಜಂತವದ್ ಭವತಿ ಇತಿ ಉಕ್ತತ್ವಾತ್ ಕ್ರೋಷ್ಟೃ ಔ ತ್ರಿಜ್ವತ್ ಕ್ರೋಷ್ಟುಃ ಇತ್ಯನೇನ ತ್ರಿಜ್ವತ್ ಭಾವೇ ಋಕಾರಾಂತಂ ಭವತಿ. ಅತ್ರ ಕಿಂ ಭವೇತ್ ಇತಿ ಪ್ರಶ್ನಃ. ಸೊ ಋದುಶುನಸ್ಪುರದಂ ಸೋನೇಹ ಸಾಂಚ ಇತಿ ಅನಂಗಾದೇಶಃ ಸೌ ಪರೇ ಏವ ಸುಪ್ರತ್ಯಯೇ ಪರೇ ಅನಂಗ್, ಅನ್ಯತ್ರ ತು ಋತೋ ನಿ ಸರ್ವನಾಮ ಸ್ಥಾನಯೋಃ. इति गुणः. वि सॉ दिस यस्टरडे. सो ऋतः ऋदन्तानां शब्दानां ङी सर्वनामस्थानयोः, ङी प्रत्यये परे सर्वनामस्थाने च परे गुणो भवति. ऋकारस्य गुणः इत्युक्ते अकारः, पुरण्परः इत्यनेन रपरः, तेन अर् क्रोष्टर् औ भवति. इदानीं पुनः अप्त्रन्त्रच् इति सूत्रेण उपधा दीर्घे क्रोष्टार् औ क्रोष्टारौ क्रोष्टा क्रोष्टारौ क्रोष्टारः क्रोष्टृ क्रोष्टु शस् जस् जस् प्रत्ययुक्ते अस्यति शिष्यते. पुनः त्रिज्वद्भावः ऋतोङि सर्वनामस्थानयोः इति गुणः, अप्तन्तच् इति उपधादीर्घः, क्रोष्टारः क्रोष्टारं क्रोष्टारौ. सो द फैव् फार्म्स् इन् आल् दीस् दर् इस् अप्तन्तच् विल् अप्लै टु गिव् उपधादीर्घ. एण्ड् इन् सूप् प्रत्यय दर् इस् एन् अनङ् आदेश आल्सो. सो दट् इस् द फार्म् फार् आल् ऋकारान्तास्. क्रोष्टा क्रोष्टारौ क्रोष्टारः क्रोष्टारं क्रोष्टारौ. सम्बोधनप्रथमायां किं भवति? हे क्रोष्टु स्. त्रिज्वद्भावविधायकसूत्रे त्रिज्वत् क्रोष्टुः इत्यत्र असम्बुद्धौ इत्यपि अनुवर्तते, चक्षुरसम्बुद्धौ इति सूत्रेण. तेन असम्बुद्धौ सर्वनामस्थाने परे एव त्रिज्वद्भावः. सो त्रिज्वद्भावः विल् हेपन् ओन्ली इफ् इट् इस् सर्वनामस्थान नाट् सम्बुद्धि. अस्य तु एकवचनं सम्बुद्धिः इत्यनेन सम्बुद्धिसंज्ञा विद्यते, तेन त्रिज्वद्भाव एव नास्ति. देर् इस् नो त्रिज्वद्भाव. सो किं भवति? हे शम्भो इतिवत् हे क्रोष्टो स्. ह्रस्वस्य गुणः इत्यनेन गुणः एङ्घस्वात् सम्बुद्धेः इति सम्बुद्धिलोपः. हे क्रोष्टो इति रूपं लैक् हे शम्भो हे क्रोष्टो. Did anybody have a chance to look at this? We are discussing this yesterday between Hasvasya Gunaha and Yeng Rasvat Sambuddhe. Okay. Hema? Okay. Correct. Correct. That is true. Yeah, the example for that was He Katarat Puleti. Fine. But does that solve our problem? What was our problem? Should we do Eng Rasva Samudhyaya first? Or should we do Hasvasya Gunaha first? Right. So either way we end up with He Kroshto. So why are we doing Hasvasya Gunaha first and why not Eng Hasva Sambuddhe He was the question. Right. So then we decided that it is because Hasvasya Gunaha is Nitya while Eng Hasva Sambuddhe He is Anitya. Right. But how do we say that Hasvasya Gunaha is Nitya and Eng Hasva Sambuddhe He is Anitya was the question. So, paratvat nityatvaccha iti dikshitaha vadanti. So, we do Hrasvasya Gunaha first because of paratva and because of nityatva. He gives two reasons because the first one is not very convincing. Paratva is very clear. Hrasvasya Gunaha is parasutra and Enghasva Sambuddhe is purvasutra. So, paratvat Hrasvasya Gunaha iti adav bhavati iti satyam. Kintu nityatvaccha ityapi uktam. So since it is a Nitya Sutra, he says Hrasvasya Gunaha should apply first. But how is it a Nitya Sutra? How do you say that Hrasvasya Gunaha is Nitya while Eng Hrasva Sambuddhe is Anitya? The question is because whether you do Hrasvasya Gunaha first, even if you do Hrasvasya Gunaha first, Eng Hrasva Sambuddhe will apply. Whether you do Eng Hrasva Sambuddhe first, then also Hrasvasya Gunaha will apply. In such a case, how do you decide which is Nitya and which is Anitya? This is the question. So, Ravichandran ji? Praswad. Haan. Exactly. So it is ing grahana samarthyat. It is because the operative word here is the word which is ing, right? Kritakrita prasanga can be fitted only if you remove that ing, right? Why is this ing grahana? Ing rasvat sambuddhehe ityatra ing grahanam kimartham? That is the first question we have to ask. Why does Panini say ing rasvat sambuddhehe? Why did he not just say rasvat sambuddhehe? Why is the question? Because wherever you apply this ing rasvat sambuddhehe due to ing anta, for example in he hare or in he vishnu, that is where we use the ing grahana. Ing grahanam kimartham iti chete. हे हरे स इति स्थिते संबुद्धिलोपः अपेक्षते, हे विष्णु स इति स्थिते संबुद्धिलोपः अपेक्षते इत्येतदर्थम् एङ् ग्रहणम्. दट् इस् द पर्पस् आफ् एङ् ग्रहण. दट् इन् इकारान्तास् एण्ड् उकारान्तास् आफ्टर् यु अप्लै ह्रस्वस्य गुणः यु एण्ड् अप् वित् एन् एङ् अन्त. सो देन् वि नीड् संबुद्धिलोप एण्ड् दट् इस् वै हि हेस् इन्क्लूडेड् एङ् ह्रस्वात् संबुद्धेः. इमेजिन् अ सिचुएशन् वेर् देर् इस् नो एङ्. द सूत्र इस् जस्ट् ह्रस्वात् संबुद्धेः. If there is a hrasvanta word, then sambuddhi will get lopa. Now, so the clash, actual clash is between hrasvasya gunaha and hrasvat sambuddhehe. When there is he kroshtu su, since this is hrasva, we can apply hrasvat sambuddhehe and do sambuddhi lopa. And we can apply hrasvasya gunaha and do guna. Which one should we do? Hrasvat sambuddhehe ittenena sambuddhi lopa karani yoga. ह्रस्वस्य गुणः इति गुणः करणीयो वा इति प्रश्नः. तदा किं भवति? नित्यत्वात् देन् वि केन् एक्स्प्लेन् नित्यत्व. बिकास् इफ् द सूत्र इस् ओन्ली ह्रस्वात् सम्बुद्धेः, द सूत्र रिमेम्बर् द सूत्र इन् कण्टेन्शन् आर् ह्रस्वस्य गुणः एण्ड् ह्रस्वात् सम्बुद्धेः. नौ इफ् वि अप्लै ह्रस्वात् सम्बुद्धेः फस्ट्, दट् इस् हे क्रोष्टु सु इति स्थिते ह्रस्वान्तादङ्गात् परस्य सम्बुद्धेः हलः लोपः इत्युक्ते आदौ सुलोपः अनन्तरं प्रत्ययलक्षणेन ह्रस्वस्य गुणः इति गुणो भवति. सो इफ् यु अप्लै ह्रस्वात् सम्बुद्धेः फस्ट् देन् ह्रस्वस्य गुणः विल् अप्लै एण्ड् वि गेट् द फार्म् हे क्रोष्टो. बट् इफ् यु अप्लै ह्रस्वस्य गुणः फस्ट् एण्ड् डू इट् अस् हे क्रोष्टो सु, नौ ह्रस्वात् सम्बुद्धेः विल् नाट् अप्लै बिकास् दिस् हे क्रोष्टो द ओकार इस् नाट् ह्रस्व. So, Hraswa Sambuddhehe cannot apply after Hraswasya Gunaha has been applied. So, what is Nityatva? Krita Krita Prasangi Shastram Nityam. If there is a Sutra A and a Sutra B, if A can apply either before B or after B, but B cannot apply after A, then A is Nitya, B is Anitya. Here A is Hraswasya Gunaha and B is Hraswat Sambuddhehe. ह्रस्वस्य गुणः इति आदौ अपि भवितुम् अर्हति. इट् केन् ईदर् अप्लै फस्ट् एण्ड् कन्वर्ट् हलो हलो हा ओके. सो वि आर् नियर्ली डन्. सो ऐ जस्ट् वैण्ड् अप् वित् दिस्. सो हा ह्रस्वस्य गुणः इति दिस् सूत्र केन् अप्लै इदर् बिफोर् ह्रस्वात् सम्बुद्धेः और् आफ्टर् सम्बुद्धेः. किन्तु ह्रस्वस्य गुणः इत्यनेन गुणे कृते ह्रस्वात् सम्बुद्धेः इति न प्रवर्तते. So that is why Hraswasya Gunaha is Nitya and Hraswat Sambuddhehe is Anitya. So what is the conclusion? We have to apply Hraswasya Gunaha first. So once we apply Hraswasya Gunaha, Hraswat Sambuddhehe cannot apply. That is why Panini added the word Ing. Ing antat, Hraswantat, Changat, Halupyate, Sambuddheshchet. So once he added Ing, hello? హలో హలో. సో వన్స్ హీ యాడెడ్ ఎంగ్, దెన్ ద థింగ్ ఈజ్ యూ కెనాట్ డిసైడ్ నిత్య అనిత్య, బికాస్ నౌ బోత్ సూత్రాస్ కెన్ అప్లై బిఫోర్, బట్ సిన్స్ ద పర్పస్ ఆఫ్ ఏంగ్ గ్రహణ వాస్ టు డిలీట్ సంబుద్ధి ఆఫ్టర్ హస్వస్య గుణ హెస్ బీన్ డన్, వీ హ్యావ్ టు అప్లై హస్వస్య గుణ ఫస్ట్ అండ్ దెన్ ఏంగ్ హస్వ సంబుద్ధి హే, అన్యథా ఏంగ్ గ్రహణస్య ప్రయోజనమేవ నాస్తి. ఇఫ్ వీ ఆల్వేస్ అప్లై ఏంగ్ హస్వ సంబుద్ధి హే ఫస్ట్ అండ్ డిలీట్ సంబుద్ధి, దెన్ దెర్ ఇస్ నో ప్రయోజన ఫర్ దిస్ ఏంగ్ గ్రహణ. Right, so we always apply hasvasya guna first because it is nitya sutra with reference to hasvat sambuddhe hai. Since it is nitya, it applies first. Once it applies, Panini still wants this sambuddhi to be deleted. That is why he included that en grahana. Idani sarvam yuktam. Adav hasvasya guna haitanena guna ha. Anantaram en hasvat sambuddhe hai iti sambuddhi lopaha. Any questions? Clear. So if this is the case, then we will stop here. So we have Kroshta, Kroshtaro, Kroshtaraha, He Kroshto, He Kroshtaro, He Kroshtaraha, Kroshtaram, Kroshtaro. So till Sarvanamasthana we had Trijvadbhava and therefore the Rupa is deferred. So what will happen after that, we will see in the next class. Next class is next Monday morning, same time, morning IST. ఏనాక్షరసమాహేశ్వర ప్రొక్తం వ్యాకరణం ప్రొక్తం తస్మై పాణినయే నమః. మునిత్రయం నమస్కృత్య ప్రదత్తి పరిభావ్య చ వైయాకరణ సిద్ధాంత కౌముదీయం విరచ్యతే. I can hear.